इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां मालदीव देशीयेन राष्ट्रपतिना डॉ मोहम्मद मोइजू इत्यमुना साकं द्विपक्षीय वार्तानां पारस्परिक कल्याणस्य च अन्ताराष्ट्रिय प्रसंगेषु चर्चां विधास्यति। एतस्य उपवेशनस्य अनन्तरं उभयोर्मध्ये अनेकेषां सन्धिपत्राणां विनिमयम् अपि भविष्यति। उपवेशनात् प्राक् मालदीवस्य राष्ट्रपतेः राष्ट्रपतिभवने औपचारिकं स्वागतं विधास्यते। तदनु असौ राजघाटस्थलं प्रत्यपि यास्यति, यत्र महात्मा गांधिने श्रद्धाकुसुमानि समर्पयिष्यति। तदनन्तरं राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया उपराष्ट्रपतिना जगदीप धनखडेन च साकं संवादं मेलनञ्च करिष्यति। डॉ मुज्जू इत्यसौ श्वः आगरा मुम्बई नगरौ प्रति प्रस्थास्यति। अवधेयं वर्तते यत् एषः राष्ट्रपतिः भारतस्य पञ्चदिवसीय यात्रायां ह्यः नवदिल्लीं सम्प्राप्तवान्। केन्द्रीय गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां वामपन्थी उग्रवाद प्रभावितानां राज्यानां मुख्यमन्त्रिभिः साकं समीक्षोपवेशनस्य एकस्य अध्यक्षतां विधास्यति। एतस्मिन् उपवेशने आन्ध्रप्रदेश बिहार छत्तीसगढ झारखण्ड तेलंगाना ओडिशा महाराष्ट्र मध्यप्रदेशानां मुख्यमन्त्रिणः सम्मिलिताः भविष्यन्ति। अपि च पञ्चकेन्द्रीय मन्त्रिणः ये वामपन्थी उग्रवाद प्रभावित राज्यानां विकासाय दत्तचित्ताः सन्ति ते अपि उपवेशने उपस्थिताः भविष्यन्ति। अत्रावधौ गृहमन्त्रालयेन प्रोक्तम् यत् केन्द्रप्रशासनं 26,000 यावत् वामपन्थी उग्रवाद शमनाय पूर्णतया प्रतिबद्धं वर्तते, तथा च गतदशवर्षाणां दत्तसम्बद्धा दत्तांशा अपि प्रस्तुता मन्त्रालयेन। जम्मूकश्मीर हरियाणायो विधानसभा निर्वाचनस्य मतगणना श्वो भविष्यति। केन्द्रशासित प्रदेशे मतगणनायै सुदृढा व्यवस्था निष्पादिता। 90 सदस्यात्मिकायै जम्मूकश्मीर विधानसभायै श्वः भविष्यमाणायै मतगणनायै जम्मूकश्मीरस्य सर्वेष् जनपद मुख्यालयेष् व्यापक प्रबन्धनानि विहितानि। भारतीय रिजर्व बैंक इत्येतस्य मौद्रिक नीति समित्याः त्रिदिवसीयोपवेशनम् अद्यारभ्य विधास्यते। विशेषज्ञानां परामर्शो विद्यते यत् भारतीय रिजर्व बैंक इति प्रमुखवृद्धि मूल्येषु यथास्थितिं निर्मातुं प्रयासरतो वर्तते। एमपीसी इत्येतस्य अध्यक्षः आरबीआई इत्यस्य प्रमुखः च बुधवासरे त्रिदिवसात्मकस्य उपवेशनस्य चर्चा परिणामान् उद्घोषयिष्यतः। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः ह्यः संगमनगर्यां प्रयागराजे 25,000 महाकुम्भाय नवीनैः वर्णैः संवलितस्य एकस्य प्रतीकचिह्नस्य अनावरणं कृतवान्। इदं प्रतीकचिह्नं धार्मिक आर्थिक समृद्ध्योः प्रतीकं, यस्मिन् समुद्रमन्थनात् बहिरागतः कलशः उल्लिखितः। अवधेयं वर्तते यत् यूनेस्को इत्यनेन मानवतायाः अमूर्त सांस्कृतिक न्यासत्वेन मान्यताप्राप्तं कुम्भमेलकं तीर्थयात्रिणां विश्वस्य बृहत् शान्तिपूर्णसभारूपेण आमान्यते। अस्य आदर्शवाक्यो वर्तते सर्वसिद्धिप्रदः कुम्भः इति। पुरुषाणां क्रिकेट प्रतिस्पर्धायां भारतेन ह्यः ग्वालियर नगरे तिसृणां क्रिकेट स्पर्धानां श्रृंखलायाः प्रथमे द्वन्द्वे बांग्लादेशः 7 पराजितः। एकं राष्ट्रं एकं निर्वाचनम् इत्यस्य कृते संघटितस्य समितेः अध्यक्षः पूर्वराष्ट्रपतिः रामनाथकोविन्दः उक्तवान् यत् सम्पूर्णे भारते युगपदेव निर्वाचनं कृत्वा देशस्य महान् लाभो भविष्यति। इति वार्ताः।